एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रधानमन्त्री केपी शर्मा ओली पूर्वाधारस्य विकासक्रमेण सहैव उत्पादनस्य वृत्त्युपार्जनानां च वृद्धिम् प्रति ध्यानम् केन्द्रितम् कर्तुम् लुम्बिनी प्रदेश सर्वकारम् अनुरुणद्धि प्रदेशस्य मुख्यमन्त्रिणा चेतनारायण आचार्येण सहितैः मन्त्रिभिः सह बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्यो बीते विमर्शने प्रधानमन्त्री ओली उपयुक्त भूमौ उन्नत बीजजातस्य कृषिं कृत्वा औद्योगिकरणं प्रवर्ध्यापणं विस्तारयितुं परामृष्टवान् प्रधानमन्त्री ओली अशुद्धस्य विषयुक्तस्य च खाद्यपदार्थस्य व्यञ्जनादीनां च निर्यातम् आयातम् च नविधातुम् ध्यानाकर्षयन् जनतायै स्वास्थ्य भोजनस्य प्रबन्धनाय निरदिशद तदवसरे मुख्यमन्त्री आचार्य प्रदेशस्य राजधानीम् रूपन्देहित दाङ जनपदम् स्थानान्तरयितुम् वित्तस्य प्रबन्धनाय समग्र पूर्वाधारस्य विकासाय च केन्द्रीय सर्वकारस्य सहयोगम् अपेक्षत राष्ट्रपतिना रामचन्द्र पौडेलेन सह भारतीय विदेश सचिवेन विक्रम मिश्री इत्यनेन शिष्टाचार मेलवार्ता भितास्ति शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य सम्भूते मेलने द्विपक्षीय हितस्य सम्बन्धस्य च विविधेषु विषयेषु विमृष्टमासीत् तदवसरे राष्ट्रपति पौडेल जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय नेपाल भारताभ्याम् मिलित्वा कार्यम् करणीयम् इत्यभाषत राष्ट्रपति पौडेल नेपाल भारतयोः अनादिकालात् जनानां सम्बन्धोस्तीति अवोचत नेपालस्य विकासाय भारतस्य महत्वपूर्ण सहयोगोस्तीति चर्चयन् राष्ट्रपति पौडेल सचिवस्य मिश्रित्यस्य कार्यकाले द्वयोः देशयोः सम्बन्धः इतोऽपि प्रगाढो भविष्यतीति विश्वासम् अभिव्यनक तदवसरे भारतीय विदेश सचिव मिश्रे जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणस्य विषय द्वयोः देशयोः कृते काठिन्यपूर्णोस्तीति चर्चयन् अस्मिन् विषये द्वाभ्याम् देशाभ्याम् मिलित्वा कार्यम् करणीयम् इति अवोचत एवमेव प्रधानमन्त्रिणा केपी शर्मणा च सहापि भारतीय विदेश सचिवेन मिश्र इत्यनेन ह्य सीमा प्रासादे शिष्टाचार मेलवार्ता विहितास्ति तदवसरे द्वयोः देशयोः द्विपक्षीयम् सम्बन्धम् सुदृढम् विधातुम् विमृष्टमासीत् विदेश सचिव मिश्री परराष्ट्र सचिवस्य सेवालम्सालस्य मैत्रीपूर्णायाम् निमन्त्रणायाम् नेपालस्य द्विदिवसीय भ्रमणाय ह्य काष्ठमण्डपम् आगतवान् वर्तते स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल स्वास्थ्य क्षेत्रस्य सुधाराय चतुर्दश सूत्रीय प्राथमिकता प्रकाशितवान् वर्तते ह्य पत्रकार सम्मेलनम् आयोज्य मन्त्री पौडेल परिवर्तनस्य आकांक्षया गभीरतया विचार्य कार्यक्रमान् सार्वजनिक कृत्वा श्रोतांसि सुनिश्चित्य क्रियान्वयनम् करिष्यते इत्यभासत मन्त्री पौडेल क्रियान्वयनस्य चिकित्सालयस्य सेवाम् प्रभावकारिणीम् विधातुम् स्वास्थ्य सुरक्षण कार्यक्रमम् प्रभावयुक्तम् विधातुम् त्रिषु स्तरेषु विद्यमानायाः असमानतायाः स्थितिम् समापयितुम् च नागरिकाणाम् स्वास्थ्य सुधारस्य विषयाः कार्यक्रमे समाविष्टाः सन्तीति असूचयत् मन्त्री पौडेलः काष्ठमण्डपे सौविध्य सम्पन्नम् स्नायु रोगोपचार केन्द्रस्य स्थापनायाः घोषणाम् अकरोत् हुतात्मा गंगालाल राष्ट्रिय हृदय रोग केन्द्रम् पञ्चशतशय्यासु विस्तार्य प्रत्येकम् प्रदेशे हृदय रोगस्य उपचारस्य सेवायाः विस्तारस्य योजनास्तीति अवोचत मन्त्री पौडेलः सप्तसु प्रदेशेषु अंग प्रत्यारोपणस्य सेवापि विस्तारयिष्यते इति प्रतिबद्धताम् अभिव्यनक गृहमन्त्री रमेश लेखकः भासते जलवायुजन्य विपद्भ्यः जायमानायाः क्षतेः तुलनात्मक रूपेण न्यूनीभवनम् पूर्वकार्याणाम् परिणामो वर्तते राष्ट्रिय सभान्तर्गतायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे भूस्खलन जलनिमग्नतादि जलवायु जघटनानाम् विपद व्यवस्थापनस्य च विषयेषु विहितानाम् कार्याणाम् आगामी कार्ययोजना नाम च सन्दर्भे विहिते विमर्शने गृहमन्त्री लेखक वर्षायामस्य सार्धैक मासावशेषे तदनुसारेणैव गृहमन्त्रालयेन पूर्व कार्यम् विधीयमानमस्तीति प्रावोचत। उपवेशे गृहमन्त्री लेखक सिमलताल बसयान दुर्घटनायाः अध्ययन प्रतिवेदनस्य निष्कर्षस्य क्रियान्वयनस्य योजनायाश्च विषये प्रतिवेदनं प्रस्तुतमस्ति। प्राप्तानां परामर्शानामनुसारेणैव मन्त्रालयेन कार्यारम्भो विधास्यते इति च अवोचत। उपवेशे सांसदाः मार्गाणाम् असुरक्षितत्वात् विकासस्य स्वरूपम् परिवर्तनीयम् पर्वणः समये यातायात सेवा व्यवस्थिता विधेयेति च परामर्शान् दत्तवन्तः। प्रतिनिधिसभायाः राज्यव्यवस्था सुशासन समितौ विमृश्यमाने भ्रष्टाचार निवारणेन सम्बद्धम् 69-2000 विक्रम वर्षीयम् अधिनियमम् संशोधयितुम् निर्मिते विधेयके संशोधन कर्तृभिः सांसदैः स्वस्य संशोधनम् प्रस्तुतम् वर्तते। समितेः ह्यस्तनोपवेशे अधिनियमम् आश्रित्य संशोधनकर्तारः सांसदाः अर्जुन नरसिंह केसी, रंजु कुमारी झा, रोशन कार्की, प्रेम सुबाला, सोविता गौतमस्थ भ्रष्टाचारस्य प्रकरणेषु दोषिभ्यो जनेभ्य कारावास दण्डनम् वित्तदण्डनम् च वर्धयितुम् संशोधनम् प्रस्तुतवन्तः। उपवेशे सांसदाः एकवारम् भ्रष्टाचारी निर्धारितोतः जनस्य सदैव भ्रष्टाचारिणः निर्धारणत्वेन वैधानिक व्यवस्था विधेया, भ्रष्टाचारस्य प्रकरणे समयसीमा न निर्धारणीया, भ्रष्टाचारस्य प्रकरणे कोटितः अधिकानां रूप्यकाणां दण्डनस्य व्यवस्था कर्तव्येति च संशोधनम् प्रस्तुतवन्तः। उपवेशे गृहमन्त्री रमेश लेखकः देशे भ्रष्टाचारस्य अन्ताय समितौ विमृश्यमानः अधिनियमः महत्वपूर्ण स्यात्स्यतीति अपैक्षत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ वर्षाभ्यन्तरे मन्त्रालयस्य अन्तर्गतानाम् अधिनियमानाम् संघीय लोकतान्त्रिक गणतन्त्रस्य अनुकूलनत्वेन संशोधनम् भविष्यतीति सूचयति। नेपाल आदिवासी जनजाति पत्रकार महासंघस्य 25 स्थापना दिवसस्य अवसरे पूर्वेद्युः मन्त्री गुरूङ पञ्चायतकाले निर्मितैः संचारादि नियमैः लोकतन्त्रम् न सुदृढायते इति धारणाम् व्यक्तवान्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशे प्रस्तुतान् 11 प्रस्तावान् आधृत्य केन्द्रीय सदस्याः ह्योपि धारणाम् व्यक्तवन्तः। उपवेशे केन्द्रीय सदस्य डाक्टर शेखर कोइराला वर्तमान सत्ता संघटनस्य प्रमुख कार्यभारः संविधान संशोधन प्रक्रियायाः अग्रे वर्धनम् अस्तीति अवोचत। ह्यस्तनोपवेशे 30 केन्द्रीय सदस्याः धारणाम् व्यक्तवन्तः। केन्द्रीय कार्य समितेः उपवेश अद्य प्रात 11 पुनः वसति। नेकपा माओवादी केन्द्रस्य स्थायी समितेः सञ्चलति उपवेशे सदस्यै स्थानीय स्तरम् आधारम् मत्वा समाजवादस्य आधार निर्मातव्य इत्यत्र बलम् प्रदत्तमस्ति। पेरिटाँडावर्तिनी दल मुख्यालये उपविष्टे स्थायी समितेः ह्यस्तनोपवेशे सदस्या एवं धारणाम् व्यक्तवन्तः।